ओम नमो भगवते वासुदेवाय। अथ पञ्चदशोऽध्यायः। मैत्रेय उवाच। अथ तस्य पुनर्विप्रैरपुत्रस्य महीपतेः बाहुभ्याम् मथ्यमानाभ्याम् मिथुनम् समपद्यत। तद्दृष्ट्वा मिथुनम् जातम् ऋषयो ब्रह्मवादिनः। ऊचुः परमसन्तुष्टा विदित्वा भगवत्कलाम्। ऋषय ऊचुः, एष विष्णोर्भगवतः कलाभुवनपालिनी, इयम् च लक्ष्म्या सम्भूतिः पुरुषस्यानपायिनी, अयम् तु प्रथमो राज्ञाम् पुमान् प्रथयिता यशः, पृथुर्नाम महाराजो भविष्यति पृथुश्रवाः, इयम् च सुदती देवी गुणभूषणभूषणा, अर्चिर्नाम वरारोहा पृथुमेवा वरुन्धती, एष साक्षाद्धरेरंशो जातो लोकरिरक्षया, इयम् च तत्परा हि श्रीरनुजज्ञेन पायिनी। मैत्रेय उवाच। प्रशंसन्ति स्म तम् विप्रा गन्धर्वप्रवराजगुः, मुमुचुः सुमनोधारा सिद्धा नृत्यन्ति स्वस्त्रियः, शङ्खतूर्यमृदङ्गाद्या नेदुर्दुन्दुभयो दिवि, तत्र सर्व उपा जग्मुर्देवर्षिपितॄणाम् गणाः, ब्रह्मा जगद्गुरुर्देवैः सहाश्रित्य सुरेश्वरैः, वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नम् गदाभृतः, पादयोररविन्दम् च तम् वै मेने हरेः कलाम्, यस्या प्रतिहतम् चक्रमंशः स परमेष्ठिनः, तस्याभिषेकारब्धो ब्राह्मणैर्ब्रह्मवादिभिः, आभिषेचनिकान्यस्मै याजर्रुः सर्वतो जनाः, सरित्समुद्रा गिरयो नागा गावः खगा मृगाः, द्यौक्षिति सर्वभूतानि समाजर्रुरुपायनम्, सोऽभिषिक्तो महाराजः सुवासा साध्वलङ्कृतः, पत्न्यार्चिसालङ्कृतया विरेजग्निरिवापरः, तस्मै जहारधनदो हैमम् वीरवरासनम्, वरुणः सलिलस्राव मातपत्रम् शशिप्रभम्, वायुश्च वालव्यजने धर्मः कीर्तिमयीम् स्रजम्, इन्द्रः किरीटमुत्कृष्टम् दण्डम् संयमनम् यमः, ब्रह्मा ब्रह्ममयम् वर्म भारतीहारमुत्तमम्, हरिसुदर्शनम् चक्रम् तत्पत्न्यव्याहताम् श्रियम्, दशचन्द्रमसिम् रुद्रः शतचन्द्रम् तथाम्बिका, सोमो मृतमया नश्वान् स्पष्टा रूपा स्वयम् रथम्, अग्निराजगवम् चापम् सूर्यो रश्मिमया निशून्, भूपादुके योगमय्यौ द्यौ पुष्पावलिमन्वहम्, नाट्यम् सुगीतम् वादित्रमन्तर्धानम् च खेचराः, ऋषयश्चाशिषः सत्याः समुद्रः शङ्खमात्मजम्, सिन्धवः पर्वता नद्यो रथवीथीर्महात्मनः, सूतोऽथमागधो वन्दी तम् स्तोतुमुपतस्थिरे, स्तावकान्स्तानभिप्रेत्य पृथुर्वैन्यः प्रतापवान्, मेघनिर्रादया वाचा प्रहसन्निदमब्रवीत्। पृथुरुवाच, भो सूत हेमागतसौम्य वन्दीन् लोके धुना स्पष्टगुणस्य मे स्यात्, किमाश्रयो मे स्तव एष योज्यताम् मामय्य भुवन् वितथा गिरो वः, तस्मात् परोक्षे स्मदुपश्रुतान्यलम् करिष्यतस्तोत्रमपीच्य वाचः, सत्युत्तमश्लोकगुणानुवादे जुगुप्सितम् न स्तवयन्ति सभ्याः, महद्गुणानात्मनि कर्तुमीशः कस्तावकैस्तावयते सतोऽपि, तेस्या भविष्यन्निति विप्रलब्धो जनावहासम् कुमतिर्न वेद, प्रभवो यात्मनः स्तोत्रम् जुगुप्सन्त्यपि विश्रुताः, ह्रीमन्तः परमोदाराः पौरुषम् वा विगर्हितम्, वयम् त्वविदिता लोके सूताद्यापि वरीमभिः, कर्मभिः कथमात्मानम् गापयिष्याम बालवत्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थस्कन्धे पृथुचरिते पञ्चदशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम्, यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।